एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रपतिना विद्यादेवी भण्डारिणा सह चीन देशस्य राज्य परिषदः सदस्य रक्षामन्त्री च वेई फेङहे गतसायं शिष्टाचार मेलनं व्यदधात्। मेलनस्य क्रमे राष्ट्रपति भण्डारी नेपालस्य सार्वभौम सत्तायाः भौगोलिक्याः अखण्डतायाः स्वतन्त्रतायाश्च सम्मानम् आन्तरिक विषय चीनदेशस्य अहस्तक्षेप नीतिं च प्राशंसत्। राष्ट्रपतिना भण्डारिणा नेपाल चीनदेशयोः सम्बन्धस्य विकासे भ्रमणं महत्वपूर्ण क्रोशशिलायाः रूपेण स्थास्यतीति विश्वासो व्यक्त इति राष्ट्रपति कार्यालयस्य प्रवक्ता बद्रीनाथ अधिकारी अज्ञापयत। तत्पूर्वं प्रधानमन्त्रिणा केपी शर्मा ओलिना सह चीनदेशीय रक्षा मन्त्रिणा वेई इत्यनेन शिष्टाचार मेलनं विहितम् आसीत्। मेलनस्य अवसरे प्रधानमन्त्री ओली नेपाल चीनदेशयोर्मध्ये विद्यमानः सौहार्दपूर्ण सम्बन्धः आगामी दिनेषु इतोपि प्रगाढो भविष्यतीति विश्वासं व्यक्तवान् इति प्रधानमन्त्रिणः वैदेशिक विषय परामर्शदाता डाक्टर राजन भट्टराई अज्ञापयत्। प्रधानमन्त्री ओली नेपालः सदैव एक चीन नीतेः पक्षे वर्तते एवं नेपालस्य भूभागं चीनदेशस्य विरूद्धे प्रयोगाय नदातुं नेपालस्य मान्यता स्थिति अवोचत। प्रधानमन्त्री ओली कोविड 19 नियन्त्रणे चीनदेशेन प्राप्तां सफलतां प्रशंसन् टीकाकरणस्य निर्माणस्य अवस्थायां नेपालश्च शीघ्रातिशीघ्रं तस्य प्राप्तेः प्रयासे वर्तते तत्र चीनदेशस्य अनुकूल सहयोगो भविष्यतीति विश्वासम् अभिव्यनकेति परामर्शदाता डाक्टर भट्टराई अबोधयत। तदवसरे चीनदेशीय रक्षामन्त्री वेई नेपाल चीनदेशयोः सम्बन्धः समस्यारहित रीत्या अग्रे वर्धमानोस्तीति व्याहरन् उच्चस्तरीय भ्रमणस्य क्रमे धृत सहमतिनां मार्ग सञ्जाल रेलयान प्रवृत्ति विकास योजनानां शीघ्रातिशीघ्रं क्रियान्वयनाय प्रतिबद्धतां व्यक्तवान्। गतदिने एव रक्षामन्त्रिणा वेई इत्यस्य मन्त्रिणः व्यय इत्यस्य प्रधानसेनापतेः पूर्णचन्द्र थापाविदस्य च मध्ये पारस्परिक हितस्य द्विपक्षीय सैनिक सहकार्यस्य च सम्बन्धे विमृष्टमासीत्। मेलवार्तायां कोविड महामार्याः कारणेन प्रभावितानां प्रशिक्षण शिक्षार्थादान प्रदान कार्याणां सुचारु सञ्चालनस्य विगतसमये धृतसहमतेः सैनिक सहायता प्राप्ति सम्बद्धायाः प्रगतेश्च विषये विमृष्टमिति नेपाली सेनायाः प्रवक्ता सहायक रथी सन्तोष वल्लभ पौडेलः अज्ञापयत्। मन्त्रिणा व्यय इत्यनेन एतदीय प्रतिनिधिमण्डलेन च नेपाली सेनायाः कोविड 19 महामार्याः विरोधिनः प्रतिकार्यस्य सहयोगाय च प्रतिबद्धताम् अभिव्यज्य उच्चस्तरीय भ्रमण प्रवृत्ति द्विपक्षीय सहयोगस्य कार्याणां यथाशीघ्रं सुचारु सञ्चालनस्य विषये आश्वस्तीकृतमिति नेपाली सेनाया ज्ञापितं वर्तते। चीनदेशीय जनमुक्ति सेनायाः उच्चैः अधिकारिभिः सहितस्य 21 सदस्यीय प्रतिनिधिमण्डलस्य नेतृत्वं विधाय विशेष विमानेन ह्य पूर्वाह्ने काष्ठमण्डपं सम्प्राप्तं रक्षामन्त्रिणा व्यय इत्यनेन सहितं प्रतिनिधिमण्डलं पूर्वेद्युवेव स्वदेशं प्रातिष्ठत। सर्वकारेण ट्रान्सपरेन्सी इन्टरनेशनल संस्थया सम्प्रत्येव सार्वजनिकृतं प्रतिवेदनं तथ्यहीनं राजनीतिक पूर्वाग्रहाच्च प्रेरितमस्ति त्यतः स्वीकर्तुं न शक्यते इति ज्ञापितमस्ति। मन्त्रिपरिषदः अस्यैव मार्गमासस्य सप्तमे दशमे च दिवसयोः उपवेशस्य निर्णयान् सार्वजनिकर्तुं ह्यः सिंहप्रासादे आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पार्वत गुरूङ अवासत। ट्रान्सपरेन्सी संस्थायाः प्रतिवेदनं सर्वकारस्य सत्ताधारी दलस्य च कलंकनस्य उद्देश्येन प्रेरितमस्ति। ट्रान्सपरेन्सी संस्थया प्रतिवेदनस्य निर्माणे अवलम्बिताः विधिः प्रक्रिया सन्दर्भ सामग्र्यः एव विश्वसनीयाः न सन्तीति मन्त्री गुरूङ अवोचत। सर्वकारेण जनान्दोलनस्य सशस्त्र द्वन्द्वस्य तराई मधेशान्दोलनस्य च सर्वेषाम् आहतानां जनानां निःशुल्कम् उपचारं विधातुं निर्णीतमस्ति। मन्त्रिपरिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुं ह्यः सिंहप्रासादे आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पार्वत गुरूङ सर्वेषाम् आहतानाम् अन्वेषणं सत्यापनं च विधाय सर्वकारीय चिकित्सालयेषु निःशुल्कम् उपचारस्य व्यवस्थां विधातुं निर्णीतम् अस्तीति अज्ञापयत्। एवमेव उपवेशेन प्रदेश स्थानीय स्तरेषु समायोजनं भूत्वा विविधैः कारणैः कार्यालयेषु अनुपस्थितानाम् अप्राप्तानां वा कर्मचारिणाम् आगामिनः चैत्रमासस्य पार्यन्तिकं वेतनभरणं संघीय विषय सामान्य प्रशासन मन्त्रालयात् प्रदातुं च निर्णीतं वर्तते। समायोजितानां परं प्रदेश स्थानीय स्तरैः उपस्थिते अवरोधितानां कर्मचारिणां विषये च सम्बद्ध प्रदेशेभ्यः स्थानीय स्तरेभ्यश्च प्रदीयमानानुदानात् निष्कास्य कर्मचारिभ्यो वेतनभरणं स्थानं प्रदातुं निर्णितम् इति मन्त्री गुरुङ अज्ञापयत्। एवमेव उपवेशेन कोरोना विषाणोः महामार्याः विषये विमृष्टुम् अस्यैव डिसेम्बर मासस्य तृतीय चतुर्थ दिवसयोः आयोक्ष्यमाणे संयुक्त राज्य संघीय महासभायाः विशेषाधिवेशने सहभागितायै प्रधानमन्त्रिणः केपी शर्मा ओलिनः नेतृत्वे त्रयोदश सदस्यीय प्रतिनिधिमण्डलं संघटयितुं च निर्णीतं वर्तते। संघीय सभायाः अध्यक्ष गणेश प्रसाद तिमलसिन्हा कथयति कोरोना संक्रमणस्य निवारणाय जनजागरणार्थं सांसदानां भूमिका प्रभावकारिणी भवति। ह्यो विराटनगरे कोरोना नियन्त्रणे सांसदानां भूमिका इति विषयिण्याम् अन्तर्क्रियायाम् अध्यक्षा तिमलसिन्हा अगदत् कोरोना विषाणुतो रक्षणाय जनतया स्वयमेव सचेष्टया जागरूकया च भाव्यम्। अन्तर्क्रिया कार्यक्रमे प्रथम प्रदेशस्य मुख्यमन्त्री शेरधन राई अकथयत् कोरोना विषाणोः नियन्त्रणाय उपचाराय च व्यवस्थित योजनया प्रदेश सर्वकारः कार्यरतो वर्तते। ह्यः आराष्टं सहस्रं चतुराधिक शतचतुष्टयञ्च जनाः कोरोना संक्रमणात् मुक्ताः सन्ति। एवमेव ह्यः अतिरिक्तेषु सहस्रे पञ्चपञ्चाशदधिक शतद्वय च जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। आराष्टं विभिन्नासु प्रयोगशालासु अष्टाधिकाष्ट सहस्राणां निदर्शनानां परीक्षणं विहितं सद् चतुश्चत्वारिंशदधिक सप्तशते पुरूषेषु एकादशाधिक पञ्चशते महिलासु च संक्रमणं पुष्टीभूतमिति मन्त्रालयेन ज्ञापितं वर्तते। ह्यस्तनदिवसावधि आराष्ट्रं कोरोना संक्रमणस्य सप्तदश सहस्राणि नवाधिक नवशतञ्च कोरोना विषाणोः सक्रिय संक्रान्ताः जनाः वर्तन्ते। कोरोना संक्रमणेन ह्य अतिरिक्ताः पञ्चविंशतिर्जनाः मृताः। कोरोना संक्रमणेन ह्यस्तन दिवसावधि मृतानां जनानां समग्र संख्या सहस्रं उनाशीत्यधिक शतचतुष्टयञ्च प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य वरिष्ठ नेता झलनाथ खनालः दलम् एकी भवतीति विश्वसिति। इलाम जनपदस्य सूर्योदय नगरपालिकायां नेकपा दलस्य कार्यकर्तृभिः सह मेलने ह्यो वरिष्ठ नेता खनालः पश्चात्तन समये नेकपा दले अन्तर संघर्षस्य वर्धनेऽपि दलं सुदृढीकर्तुं विधीयमानस्य विमर्शनस्य रूपेण एतत् ज्ञातुम् अन्वरुणत्। असौ दलाध्यक्षेण प्रधानमन्त्रिणा च केपी शर्मा ओलिना सचिवालयोपवेशे प्रस्तुतस्य प्रतिवेदनस्य मनो नूतनरीत्या दलम् एकी भविष्यतीति विश्वासं व्यक्तवान्। परराष्ट्रमन्त्री प्रदीप कुमार गेवाली गदति सर्वकारः जनतायाः न्यूनतमाः आवश्यकताः प्रपूर्य विपुल पूर्वाधारस्य कार्येषु अग्रे वर्धितो वर्तते। गुल्मी जनपदस्य सत्यवती ग्रामपालिकायाः अस्लेवा स्थाने ह्यः पेयजल योजनाम् उद्घाटयन् मन्त्री गेवाली अतर्कयत् जनाकांक्षायाः पूरणस्य दिशि अग्रे वर्धमानं वर्तमान सर्वकारं जनतां विना अन्ये परिवर्तयितुं न शक्नुवन्ति। मन्त्री गेवाली सर्वकारेण विहितानां शोभनकार्याणां चर्चया विना प्रतिकूल विषयान् उद्भाव्य टिप्पणीकरणस्य वैपरीत्येन रचनात्मक परामर्शान् दातुं दलानि अन्वरुणत्। गृह मन्त्रालयेन सीमा सुरक्षायां सीमा क्षेत्रेषु सम्भावितापराधानां नियन्त्रणे च सक्रियतापूर्वकं दायित्वं निर्वोढुं सशस्त्र प्रहरिणः निर्दिष्टाः सन्ति। सम्प्रत्येव वाहिनीपतेः रूपेण स्थानान्तरणं कृत्वा सीमाक्षेत्रे प्रस्थीयमानान् सशस्त्र प्रहरिणः अधिकृतान् सशस्त्र प्रहरी बल नेपालस्य मुख्यालय काष्ठमण्डपे ह्य आयोजिते समारोहे गृह सचिवः महेश्वर न्यौपाने एवं निर्दिष्टवान्। पूर्व पश्चिम राजमार्गस्य अन्तर्गतस्य कञ्चनपुरस्य बेरकोट नगरपालिकायाः प्रथमवडा क्षेत्रस्य चम्फापुरस्य निकटे ह्यः ट्रकयानेन प्रहरितः सन् मोटरसाइकल याने आरूढः प्रहरी हवलदार परीयः षट्त्रिंशत् वर्षीयः रामबहादुर विष्टः घटनास्थले एव मृतो वर्तते। प्रहारकस्य ट्रकयानस्य चालकः गोदावरी नगरपालिकायाः प्रथमवडा क्षेत्रस्य अष्टाविंशति वर्षीयः यज्ञराज भट्टः प्रहरिणा नियन्त्रितो स्थिति कञ्चनपुर जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षक अमर बहादुर थापा क्षेत्री ज्ञापयति इति समाचारः।